सर्वेभ्यः नमस्कारः. सिद्धान्तकौमुद्याः अनन्तपुल्लिङ्गप्रकरणे त्रिंशः पाठः. जनवरी मासस्य तृतीयः दिनाङ्कः. एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् तस्मिन् व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकादम्बररसिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. मुनित्रयं नमस्कृत्य तदुक्तीश्वरिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. अनन्तपुल्लिङ्गप्रकरणे षकारान्ताः पुल्लिङ्गाः आरभ्यन्ते. तत्रादौ तादृश इति शब्दः स्वीक्रियते. तादृशः इति अकारान्तमपि अस्ति तादृश इति, एवं षकारान्तः तादृश शब्दोऽपि अस्ति समानार्थकः. तस्य निष्पत्तिं प्रदर्शयति त्रिधादिषु दृशो नालोचने कञ्च इति सूत्रम्. पञ्चपदानि सन्ति. त्रिधादिषु दृशः अनालोचने कञ्च इति धातोः इति अधिक्रियते. स्पृशोनदके क्विन् सूत्रात् क्विन् इति अनुवर्तते. त्रिधादिषु उपपदेषु अज्ञानार्थात् दृशेः धातोः कै स्यात् चात् क्विन् कृत् प्रत्ययो विधीयते अनेन सूत्रेण. कै प्रत्ययः एकः, क्विन् प्रत्ययः अपरः. यदादिषु उपपदेषु त्यद् तद् यद् एतद् इदम् अदस् एक इति एते त्यदादयः. एतेषु उपपदेषु दृशधातोः कै प्रत्ययः भवति, क्विन् प्रत्ययश्च भवति. कै प्रत्यये कृते अकारान्तत्वं सम्पद्यते, क्विन् प्रत्यये कृते षकारान्तत्वमेव. सो तद् दृश् तद् इत्यस्मिन् तच्छब्दे उपपदे दृश् धातोः क्विन् प्रत्ययः, अकारस्य लोपे तद् दृश् इत्येव शिष्यते. कः अर्थः इति द्रष्टव्यम्. अज्ञानार्थात् दृशेः धातोः इत्यस्ति. दृशधातोः अर्थः पश्यति इत्यर्थः. ज्ञानार्थकः दृशधातुः. किन्तु तद् दृश् इति तादृश इति शब्दः अस्ति, तस्य तत्र दर्शनार्थकत्वं न भवति. इट् डस् नाट् तादृश मीन्स् सम्बडि हि सिमिलर्, सम्बडि सिमिलर् आर् अलैक्, तादृशः, एतादृशः. सो देर् इस् नो ज्ञानार्थकत्व और् दर्शनार्थकत्व फोर् द दृशधातु. सो इन् सच् केसस् यु हाव् द कै अण्ड् क्विन् सफिक्सस्. वेन् यु हाव् तद् दृश् आफ्टर् उपपदसमासम् आ सर्वनाम्नः इति अपरं सूत्रम् दृग्दृशवतुषु इति अनुवृत्तिः अस्ति. सर्वनाम्नः आकारः अन्तादेशः स्यात् दृग् दृशवतुषु. दृक् इत्यस्मिन् परे तत् दृश् इत्यस्यैव दृग् इति जातम्. दृश् दृशवतु इत्येतेषु परेषु सर्वनाम्नः आकारः अन्तादेशः स्यात्. तद् दृश् इत्यस्ति, तद् इति सर्वनाम. दृश् इत्यस्मिन् परे दकारस्य स्थाने आकारादेशः सवर्णदीर्घः. This is actually त आदेश. आसर्वनाम्नः इत्यनेन दकारस्य आक्तुं, पुनः अकस्सवर्णे दीर्घः इत्यनेन सवर्णदीर्घे कृते तादृश इति प्रातिपदिकं, षकारान्तं प्रातिपदिकं कृतं दत्वा प्रातिपदिकसंज्ञा भवति. सो यु हाव् दिस् प्रातिपदिका काल्ड् तादृश, विच् इस् षकारान्त, विच् इस् आल्सो क्विन् प्रत्ययान्त. There is a question, what is the meaning of chat in the previous sutra? Tradadishu dishu nalochane kai cha iti. Kevalam kai ityukte kai pratyaya eva bhavati. Sakarena saha purva sutrat kvinaha samuchayaha. So chakara brings in kvin or drags in kvin. तादृश शब्दस्य सुप्रत्यये परे प्रक्रियां प्रदर्शयन्ति वीक्षिताः. कुत्वस्य असिद्धत्वा द्रष्ट इति श्वः तस्य दृष्ट्वेन नः तस्य कुत्वेन नः तस्य दृष्ट्वेन पक्षे कः अर्थः तादृशे सुप्रत्ययः प्रत्ययस्य हल्ज्ञादिना लोपः तादृशे नौ क्विन् प्रत्ययस्य कुः इत्यनेन कुत्वं प्राप्नोति क्विन् प्रत्ययः यस्मात् तदन्तस्य कुत्वं भवति इत्यनेन शकारस्य स्थाने कुत्वं प्राप्नोति किन्तु तस्य असिद्धत्वात् क्विन् प्रत्ययस्य कुः इस् 8 to 62 तस्य असिद्धत्वात् अष्टभस्द सृजं रज यजराजभ्राज छशां षः इति सूत्रं शकारान्तानां षकारः मूर्धन्यषकारः आदेशः भवति इति वृष्टभ्रज इति सूत्रेण उच्यते अष्टमाध्यायस्य द्वितीयपादे षट्त्रिंशत्तममिदं सूत्रं सो सिन्स् कुत्व इस् असिद्ध सूत्र यु हेव् षत्व इनिशियेटि तादृश षत्वे कृते सलाञ्जशोऽन्ते इत्यनेन जष्ट्वे कृते षकारस्य स्थाने डकारः तादृड् इति भवति इदानीं क्विन् प्रत्ययस्य कुः इत्यनेन कुत्वं डकारस्य कुत्वं डकारः वर्गतृतीयः तस्य स्थाने कुत्वम् इत्युक्ते गकारः भवति तादृग् इति एकं रूपं वावसाने इत्यनेन वैकल्पिके सत्त्वे कृत तादृक् इत्यपि भवति तादृक् तादृग् इति रूपद्वयं प्रथमा विभक्तौ तादृक् तादृक् तादृशौ तादृशः अजादिषु प्रत्ययेषु परेषु किमपि नास्ति तादृशी औ तादृशौ तादृशि अस् तादृशः षत्वापवादत्वात् कुत्वेन खकारः इति कैयटः रदत्तादिमते तु सत्त्वाभावपक्षे ख एव श्रूयते न तु गः जष्टं प्रति कुत्वस्य असिद्धत्वात् पूर्वं किमुक्तं कुत्वस्य असिद्धत्वात् षत्वं पश्चादिना षत्वं भवति इति उक्तम् षत्वापवादत्वात् कुत्वेन खकारः कैयटहरदत्तादिमतः कैयटहरदत्त एण्ड् अदर्स् ओपैन् दट् between vrashtabhasda shatva and kinpratyasya kuhu there is a vadhyavadhaka bhava that is kinpratyasya kuhu is an apavada for vrashtabhasda so it will overrule vrashtabhasda even in tripadi you should always remember that in case of utsarga apavada there is no asiddhatva asiddhatva applies only when there is no relation between the sutras if one is utsarga and another is apavada there is no asiddhatva So, if Kvin Pratyasya Kuhu happens to be an apavada for Rashtabhrasda, tada kim bhavati, Rashtabhrasda itese pravrtihi na bhavati. So, instead of Rashtabhrasda in the previous case, tadrishya itisthite, sakshat kutvam bhavati. So, you directly apply Kvin Pratyasya Kuhu. Kvin Pratyasya Kuhu ityanena kutve kim bhavet iti prishnaha. What should be the adesha? शकारः खर्वर्णः महाप्राणः सो इन् कवर्ग ऐ हेव् टु खर्वर्ण क एण्ड् ख एण्ड् महाप्राण इस् खकार अतः किं भवति खकारः भवति तादृक् इति खकारः खकारे कृते वावसाने इत्यनेन वैकल्पिके तत्त्वे तादृक् इति एकं रूपं तदभावे सत्त्वस्य अभावे खकारः एव श्रूयते न तु गः यष्ट्वं प्रति कुत्वस्य सिद्धत्वात् यु विल् नाट् हाव् द फार्म् वित् गकार तादृग् इति न भवति तादृक् इति खत्वे कृते खकारादेशः जष्ट्वं प्रति असिद्धः सो इफ् यु गो बेक् यु विल् सी दट् जष्ट्व इस् बिफोर् क्विन् प्रत्ययस्य कुः जष्ट्व इस् 8 to 39 एण्ड् क्विन् प्रत्ययस्य कुः इस् 8 to 62 सो इफ् यु फस्ट् अप्लै क्विन् प्रत्ययस्य कुः एण्ड् कन्वर्ट् इट् टु खकार झलाञ्जशोन्ते डस् नाट् सी दट् Khakara. So it will not apply to convert it into Gakara. So you will hear one form with Khakara and the other form with Kakara is what he says. Shatvapavadatvat kutvena khakaraha iti kayeta haradattadimatetu chatvabhavapakshe kha eva shruyate natu gaha दृष्ट्वा प्रति कुत्सस्य असिद्धत्वात्। तादृश तृतीय हरियाणा श्लोक किं प्रत्यय कुहु इत्यनेन कुत्वे शकारस्य स्थाने खकारः तादृक् वावसाने इत्यनेन वैकल्पिकचर्ते तादृक् दिगानिभ्यो यत् इति निर्देशात् न असिद्धत्वम् इति वा बोध्यम्। But on rethinking, he says, Digadibhyo yat, iti sutram asti, Panini sutram, Dik adibhyaha, Dish shabdaha, Digadibhyaha iti Paninina uktam, Dish ityatrapi evaya prakriya, Dish ityaski, Dish ityasmata, Kvindratyaha, Tasi kvindratyasi kuhu ityanena kuttum, Tataha jastvam kritam Paninina, Digadibhyaha ityatra gakaraha shruyate, Atasmata Paniniya nirdesha, निर्देशादेव न असिद्धत्वं दृष्टं प्रति कुत्वस्य असिद्धत्वं नास्ति इति बोध्यम्। सो यू शुड अस्यूम दैट देयर इज नो असिद्धत्व बिटवीन दृष्ट्व एंड कुत्व बिकॉज ऑफ पाणिनीय निर्देश एंड देयरफॉर इन द एब्सेंस ऑफ चत्व देयर इज दृष्ट्व टू गिव यू द सेम फॉर्म्स तादृक् तादृग् इत्येव रूपम्। लिखित इज नॉट वेरी हैप्पी विद द समाधान दैट्स व्हाई ही इनिशियली सेज Khakare Ashuyeta, and then he says there is no Asiddhatva, so you still end up having the same forms. And Dikshita's Mata is Kutrasya Asiddhatva, Tadoshatvam, Tatahadatvam, Tataha Shatvam, Jashtvam, Kutvam, Ante Chatvam. It is Dikshita Naam Matam. Kayetasya Haradatasya Samate, Sakshat Kutvam, Chatvam, Jashtvam. That is about Tadrik. There is nothing else. You have Tadrisham, Tadrisham, Tadrishaha, Tadrisha, Tadrikbhyam, Tadrikbhi, Ityadini Rupani. You have similar forms all over. Wherever you have Padanta, Tata Sayeva, Dikshitanamate, Tadrish, Bhyam, Tiskate, Shattam, Jashtam, Patakutam, Tadrig, Bhyam. कयटस्य मते आदौ कुत्वं ततः जष्टुं तादृक् तादृग् इति तादृग्भ्याम् इति भवति। अग्रिमशब्दः विष शब्दः विषप्रवेशने विशति नाम प्रविशति एण्टरिङ्ग् इत्येव अर्थः। तस्मात् क्विप् प्रत्ययः कर्तरि प्रत्ययः विशति इत्यर्थे विश् शब्दः वृष्टभ्रस्यादिना शब्दं जष्टुतत्वे वृष्टभ्रस्य सृजमृजयधराजभ्राजच्छशाम् अन्ते षकारः अस्ति सर्वेषां षकारान्तानां षकारादेशः भवति झलिपदान्ते च इत्यनेन षत्वं विश् सु इत्यस्ति सुप्रत्ययस्य हल्यानेन लोपः विष् इति षत्वे कृते झलां दशोऽन्ते इत्यनेन चष्टे विड् भवति तस्य चत्वे विट् विट् विड् इति रूपद्वयम्। यू हियर् द टवर्ग इट्सेल्फ हियर् बिकास् देर् इस् नो कुत्व कुत्व अप्लैस् ओन्ली फार् क्विन् प्रत्ययान्त सिन्स् देर् इस् नो कुत्व यू हियर् द टवर्ग विट् विड् विषौ विषः विषं विषौ विषः इत्यादीनि रूपाणि विषा विड्भ्यां विड्भिः। सो देर् इस् नथिङ्ग् स्पेशल् अबौट् द शब्द। अपरः शकारान्तः पुल्लिङ्गः नश् शब्दः रश अदर्शने इति धातुः तस्मात् कृप् प्रत्ययः। सो दिस् इस् आल्सो कृप् नशेर् वा इति सूत्रम् नशेः वा किं विकल्पेन भवति चेत् क्लिन् प्रत्ययस्य कुः। सो दिस् सूत्र इमिडियट्लि फालोस् क्लिन् प्रत्ययस्य कुः कुत्वं विकल्प्यते पदस्य इत्यधिकारः को संयोगाद्योरन्ते च इत्यतः अन्ते इति अनुवर्तते पदान्ते कुः नशेः कुत्वं भवति विकल्पेन। अशेः कवर्गः अन्तादेशः वा स्यात् सदान्ते. कुत्वं भवति चेत् नक् नग् इति रूपद्वयं. जस्ट् लैक् यु हाव् तादृक् अण्ड् तादृग् यु हाव् नक् नग्. कुत्वस्य अभावे दत्त्वं भवति. सो डटवर्ग इभियर् नट् नड् लैक् विश नशौ नशः. सो नशशब्दस्य हलादिषु प्रत्ययेषु रूपद्वयम् अत्र रूपचतुष्टयं बिकास् आफ् चतुर्विकल्प. बट् अदर्वैस् यु हाव् नग्भ्यां नड्भ्यां नग्भिः नड्भिः. कुत्वस्य एकं रूपं जश्रस्य अपरं रूपं. नशौ नशः अचादिषु प्रत्ययेषु विशेषः कोऽपि नास्ति. नद्भ्यां नड्भ्याम् इति सः नशशब्दः. सो वि हाव् तादृश विश् अण्ड् नश. अग्रिमं सूत्रमस्ति स्पृशो नुदके त्वीन्. त्रीणि पदानि स्पृशः अनुदके क्लिन् सुपिस्थः इति सूत्रात् सुपि इति अनुदके सुपि उपपदे. सुपि उपपदे वेन् सुबन्त इस् एन् उपपद. सुबन्त अदर् देन् उदकशब्द इस् एन् उपपद. स्पृशेः क्लिन् स्यात्. स्पृश् धातु विल् गेट् क्लिन् प्रत्यय. घृतं स्पृशति कर्तृत्थे क्विन् प्रत्ययः. घृतं स्पृशति इति विग्रहे घृतस्पृश् क्विन् प्रत्ययान्तशब्दः. क्विन् प्रत्ययान्तश्चेत् कुत्वं भवति. सो यु हियर् द ककार अर्ध ककार घृतस्पृक् घृतस्पृग् घृतस्पृशौ घृतस्पृशः. अनुदके सुपि उपपदे. सुपि उपपदे सुबन्तं नाम घृतशब्दे उपपदे स्पृश् धातोः क्विन् भवति. इफ् इट् वर् उदकशब्द उदकं स्पृशति इति यदि भवति तर्हि क्लिन् न भवति. क्लिन् प्रत्ययस्य अभावे क्विक् प्रत्ययः. सो इफ् यु हाव् क्विक् प्रत्यय यु वुड् नाट् हाव् द कुत्व. सो इट् हियर् द तवर्ग उदकस्पृट् उदकस्पृड् उदकस्पृशौ उदकस्पृशः इति रूपं स्यात्. Jastvam is not asiddha to kutva. Jastvam is never asiddha to kutva. Jastvam comes before kutva. Jastvam is 8 to 39 and kutva is 8 to 62. Yeah. So jastva is always siddha. It says, is kutva siddha to jastva or not? I mean, if we go by Dikshita Matam, there is no problem because we are going in order. So we do jastva first and then apply kutva, so there is no problem. If we follow Kayata Matam, we have to assume that there is no asiddha. Of kutva to jastva. Ghritasprak, ghritasprak, ghritasprishav, ghritasprishaha. क्विन् प्रत्ययः यस्मात् इति बहुव्रीह्याश्रयणात् क्विति अपि कुत्वम्. क्विन् प्रत्ययस्य कुः. वि सा दिस् पायिण्ट् अर्लियर् आल्सो. क्विन् प्रत्ययस्य कुः इति उच्यते. तत्र क्विन् प्रत्ययस्य इति समस्तं पदम्. तस्य कः अर्थः? क्विन् प्रत्ययान्तस्य क्विन् इति प्रत्ययः क्विन् प्रत्ययः क्विन् प्रत्ययस्य इत्यस्य येन विधस्तनन्तस्य प्रत्ययग्रहणे तदन्ताग्राह्याः इत्यनेन तदन्तग्रहणे क्विन् प्रत्ययान्तस्य कुत्वम् इति अर्थः यदि क्रियते तदा यत्र क्विन् प्रत्ययः भवति तत्रैव कुत्वम्. सो द जनरल् टेण्डेन्सीस् देर् इस् अ क्विन् प्रत्यय. सो एनी वर्ड् एण्डिङ्ग् इन् द प्रत्यय वुड् गेट् कुत्व इस् वाट् यु यूजुवली इण्टर्प्रिट् इट् एस्. किन्तु तत्र तादृशः विग्रहः नोच्यते. क्विन् प्रत्ययस्य इत्यत्र क्विन् प्रत्ययः यस्मात् सः क्विन् प्रत्ययः इति बहुव्रीहि समासः क्रियते. क्विन् इति प्रत्ययः किं प्रत्ययः इति कर्मधारयः सामान्येन दृश्यते. किन्तु अस्मिन् सूत्रे क्विन् प्रत्ययः यस्मात् सः इति बहुव्रीहिः आश्रीयते. दट् वर्ड् आन् विच् क्विन् प्रत्ययः हस् बीन् डन्. सो वाट् इस् द सिग्निफिकेन्स् आफ् दिस्? It means that somewhere, if it can get clean pratyaya in some context, in the other context where it does not have clean pratyaya, tatrapi kutvam bhavati. As long as it has the yogyata of getting clean pratyaya somewhere. Arthata sprishya ityasya sprishya ityasmat clean pratyaya kritaha. Kadatataha supi upapade clean pratyaya kritaha. Kadachit kvip pratyaya bhavati. Arthata kevalaha sprishya shabdaha yadi asti. Supi upapade sprishya dhatavo clean pratyaya bhavati. Yadatu upapadam eva nasti. Consider just sprishya dhatu which does not have any upapada. Tadātu kvin pratyaha na bhavati, kvip pratyaha bhavati. Sprishya iti shakārāntam prātipadikam. Now, even though this is not a kvin pratyaya, yadyapi atra kvin pratyaha nāsyayam na kvin pratyaya, tathāpi kvin pratyaha yasmāt saha iti vigrahe āśrita, sprishya has kvin pratyaya sometimes. The kvin pratyaya has been done or can be done on sprishya when there is a supi upapada of subanta upapada. So therefore, because of this interpretation, kvip pratyayantasya api kutvam bhavati. Kvip pratyayasya kuhu ityanena kutvam bhavati. So, sprk, if you just have sprishya shabda, which is a kvip pratyayanta, tasya api supratyaya pare kvip pratyayasya kuhu ityanena kutvam bhavati, sprk, sprg, sprishav, sprishaha, iti rupani bhavanti. So that is the speciality of the vigraha in kvip pratyayasya kuhu. We saw this earlier also. षडगकाः प्राग्वते स्मृति हि से स्पृश सु इति भवति सुप्रत्ययस्य लोके षत्वं प्रष्टभ्रज्ञादिना षत्वं डत्वं झलां दिशोऽन्ते इत्यनेन जष्टेन डः किन्प्रत्ययस्य कुः इत्यनेन दः आवसाने इति कः षडगकाः प्राग्वते सो लैक् वि डिड् इन् तादृशी इट्स् द सेम् प्रक्रिया यु स्टिल् हेव् कुत्वम् इवन् दो इट् इस् नाट् किन्प्रत्ययः बै इट् सेल्फ् So that is about Shakaranta. Talabhi Shakaranta Shabdaha Tamadeya. So there is Kvin and there is Kvip. So Kvin Pratyaha Yadi Bhavati Tarhi Kuttum Bhavati Nochet Jastum Jastvena Tavargaha Shruyate. Deva Bheda. So next he moves on to Shakaranta. Mudhanya Shakaranta. Idhrusha Pragalbhye iti dhātuhu, dhrushu dhātuhu. Asmāt ṛtvik dadhrak saragdi guṣṇi guṣṇi yuji kancha ancha ityanena kvin. So in ṛtvik dadhrak you have this, dadhrak is derived from this dhrushu dhātu. Dvittvam antodātattvam cha nipātyate. ṛtvik dadhrak iti nipātana sutram. यद्यपि धातुः केवलं सृषु धातुरेव द्वित्वं कृतं सो यु हियर् द दधृक् इत्यत्र द्वित्वं श्रूयते द्वित्वं निपात्यते अनेनैव सूत्रेण द्वित्वं देयर् इस् नो अदर् सूत्र विच् केन् गिव् द्वित्व फार् द धातु अनेनैव सूत्रेण द्वित्वं निपात्यते अन्तोदात्तत्वमपि निपात्यते स्वरः अन्तोदात्तस्वरः अपि निपात्यते कुत्वात् पूर्वं जष्ट्वेन डः गः कः You have dhrushnoti iti. Dhrushnoti ityarthe. Dhrushidhatohu dadhrushu iti pratipadikam jatam. You add kvin pratyaya and you make dhritva and other changes. You get dadhrushu. So kutvat purvam. Before doing kutva. This is a kvin pratyaya. Kvin pratyaya antasya kuhu iti kutvam bhavati. Kvintu kutvat purvam. Artha kutvasya siddhatvate jashtvena daha. Dadhrushu iti sthite. आदौ जष्टुम् जष्ट्वे कृते दधृड् इति भवति ततः किन्प्रत्ययस्य कुः इत्यनेन कुत्वे दधृग् पावसाने इत्यनेन कृत्वे दधृक् प्रक्रिया इस् द सेम् यु हाव् टु स्किप् द फस्ट् स्टेप् देर् वाट् यु डु यु हेड् द तालव्यशकार विच् इस् कन्वर्टेड् टु मूर्धन्यशकार इनिशियलि बै अष्टभ्रज्ञ हियर् यु डोण्ट् नीड् इट् बिकास् युर् स्टार्टिङ्ग् आफ् वित् मूर्धन्यशकार देर्लि कन्वर्ट् जष्ट्वं कुत्वं चत्वं दधृक् दधृक् दधृषौ दधृषः दधृषा दधृग्भ्यां दधृग्भिः इत्यादीनि रूपाणि So the prakriya is almost the same except for the first step. You don't need first step. Ratnani mushnati. Mushnati nama chorayati ityarthaha. Ratna mush iti kvivantaha. Now this mush, ratna mush iti. Ityasma mushadhatohu kartrathe kvip pratyaha kriyate. You can add kvip to ratna mush. So it is a kvivanta. Kvivanta tvaati kvintratesekuhu iti kutvam nabhavati. So you just directly ratna mush ityasma chalam jashvante ityanena jashtve. Ratnamud iti havati. Vaikalpike chatve ratnamud. We have ratnamut, ratnamud, ratnamushau, ratnamushaha. Ratnamusha, ratnamudbhyam, ratnamudbhihi, iti rupani. So again, you have two types in shakaranta, general types. One is where you have a kvin pratyaya. If you have kvin pratyaya, you have kutva. If there is no kvin, there is no kutva. Shakarantaha pullingaha, shashi shabdaha. So the next word is shashi. Shadhyoluk. Shatsanya kebhya parayohu jashyasohu. Not kashyasohu. It has to be jashyasohu. Jashyasohu luk syat. It is sutram. So, shashyati shakarantaha nityam bahuvachanantaha. The word 6, it is nityam bahuvachanantaha. So, you start with jas and shas. Shadhyoluk ityanena jashvaha shasascha luk bhavati. So, in both cases, you have shashy left. Dhananjashvante ityanena jashtve, avasane ityanena jashtve, shat, shadda. Iti rupadvayam, prathama bahuvachane, dhitiya bahuvachane. Shadbhihi, shadbhyaha, shadbhyaha. Dhis, dhis, dhis. Eteshu pareshu sarvatra, dhananjashvante ityanena jashtvam. So we have shadbhihi, shadbhyaha, shadbhyaha. Shadchaturbhishcha iti nutu. Aam pratyaha, shashi aam iti sthita. Shachchaturbhyascha ityeva sutram. Shachchangasanyakebhyaha chaturascha parasya aamaha nudagamaha syat. Now the word shashi again has shat samya. Shnanta shat. Shakaranta nakaranta cha samya shat samya syat ityanena shat samya bhavati. The word shat in this sutra refers to the words which have shat samya. This is not just shat. Saptan, Navandashan, all those. Nakarantas and Shakarantas. Shatsangyebhyaha parasya amaha nudagamasyat ityanena nudagamaha bhavati. Anam iti paryudasat na shtutva nishethaha. Iti ujjate. Once you have naam, nudagama, you have shashu and naam. Shashu naam iti sthite, should you have shtutva for, you do jashtva, so you have shadu naam. Shadu naam iti sthite, shtutvam bhavati va nava iti prashnaha. Na padanta tora naam iti sutram asti. Padanta tavargat parasya, shtutvam na bhavati iti sutram. So if you remember, this is a nishedha for shtutva. If there is a tavarga in padanta, and following it, you have sakara or tavarga, you will not have shtutva. Now, this has padasamya. Swadisha sarvanamasthane ityanena padasamya bhavati. Padasamyaya sattvata shashu shad naam iti sthite shtutvam nasyat iti prashnaha anam iti parijadasat. Anam navati nagarinam iti vartika unchate. So, except in case of naam, navati and nagari. In these three cases, there will be shtutva. Since Shrutva Nishedha itself is prevented for Naam, Navati and Nagari. Shadu Naam iti sthite Shrutvam Bhavati. You have Shadu Naam Anunasike Krate Shadnaam iti Bhavati. Eronunasike Anunasiko Va iti Vikalpam Vadhitka Prateya Bhashanam Nityam iti Vachana Nityam Anunasikaha. So one more thing. You have Shadu Naam. Shadu Naam. Shrutvam tu Krutam. Shrutve krute edani anunasikah karaniyaha. Anunasikaha kena bhavati iti prashnaha. Eronunasikena nasikova iti eri bhavati tarhi vaikalpikaha anunasikaha. Hintu tambadhitva prateya bhashayam nityam iti vartikam. Pratyasya anunasike pare nityam अनुनासिकसन्धिः भवति. चिन्मयम् इत्यादिषु इत्यादीनि तन्मात्रम् इत्यादीनि उदाहरणानि. सो यु हेव् अ नित्य अनुनासिक हियर्. षष् आम् षट्चतुर्थ्यष्ट इत्यनेन नुडागमे षष् न आम् इति भवति. झलां जशवन्ते इत्यनेन जष्ट्रे षड् नाम् नौ ष्टुनाष्टुः. So since nakaranta to ornam will not apply, you can do shrutva to for nakara, you get nakara. Nakara se sthane, avarga pancham aksharaha, adeshaha, shad naam, pratyayam bhashayam nityam, ittanena nityam anunasike kute, shad naam, iti rupam, shashthi bahuvachane. Shatsu, shatsu. Shashu, su, ekkasti. जष्ट्वं चप्त्वं जष्ट्वं जष्ट्वेन लकारे कृते दस्सि धुट् इत्यनेन विकल्पेन धुरागमः. धुरागमे कृते चत्वे कृते षट्सु इति रूपं. तस्य अभावे षट्सु. तदन्तविधिः कार्यं यदुक्तं षड्भ्यः षड्भ्यो लुक् इति षट्सङ्ख्येभ्यः लुक् यश्यसोः लोपः उक्तः तथैव षट्सङ्ख्येभ्यः परस्य आमः नुडागमोऽपि उक्तः. उभयत्र तदन्तविधिः भवति. पदाङ्गाधिकारे कस्य च तदन्तस्य च तेन परमषट् परमाश्च ते षट्च इति विग्रहे अपि जश्यसोः लुक् भवति परमषट् परमषण्णाम्. सो बोत् लुक् एण्ड् नुडागम विल् अप्लै इन् केस् तदन्त अदन्त वेन् इट् इस् प्रधान. गौणत्वे तु प्रियशशः. गौणत्वे किं भवति? संज्ञोपसर्जनीभूतः अस्ति न सर्वादयः इति सर्वनामसंज्ञानिषेधः. तदन्तर्गणकार्यं सारी दिस् इस् नाट् सर्वनाम. गौणत्वेन भवति इत्यस्य किं प्रमाणम्? एनि कार्य रिलेटेड् टु संख्या विल् नाट् हेपन् वेन् इट् इस् गौण. क्रियाः षट् यस्य सः अथवा यस् येषां ते इति विग्रहे लुक् अपि न भवति. षड्भ्यो लुक् इति लुग् अपि न भवति. नृडागमोऽपि न भवति इति उच्यते. गौणत्वे तु प्रियशशः प्रियशश् अस् इति स्थिते लोपः नास्ति. प्रिय लुक्त्वं विसर्गः प्रियशशः. एवं प्रियशशां नृडागमोऽपि न भवति. आल्रेडि सीन् दट् दिस् कार्य षट्सम्या प्रयुक्तकार्यं विल् नाट् हेपन् इन् गौणत्वम्. किन्तु यद्यपि तदन्तविधिः अस्ति तथापि गौणत्वे इमानि कार्याणि न प्रवर्तन्ते इति उक्तत्वात् प्रियाः षट् यस्य सः इति विग्रहे त्रीणि वचनान्यपि भवन्ति. दट् इस् द फस्ट् थिङ्ग्. आल्सो फार् इदर् लुक् आर् नुडागम विल् नाट् अप्लै. The next word, shakaranteshu, shakarantah pulingaha, vipathish shabdaha. Pathitum icchati vipathishati, iti sannantam. Patha vyaktayam vachi iti dhatuho. Pathitum icchati iti vidrahe. Patha dhatoho sanpratyaha bhavati. Dhatoho karmana samana katrakad icchayam va, iti sutrena, san, pathu, sa, sanyamoho ityanena drittam bhavati. Always when you have sun, you hear the dvitva. Dantamichyati, jigamichyati, patamichyati, pipasati, etc. So you have dvitva. Pathu, pathu, sa, iti dvitvam bhavati. Haladishyeshaha ityanena, thakarasya lope, papathu, sa. Sanyataha ityanena, akarasya sthane, ikaraha bhavati. So you have pipathu, sa. सनः अधघातकस्य ड्वलादेः इत्यनेन इडागमः क्रियते. सः पिफट् ई स इकार इस् एडेड् टु सन्. पिपठ ई स इति स्थिते आदेश प्रत्यययोः इत्यनेन सत्वं भवति. देयर इज एन इन इन कवर्गाभ्यां परस्य आदेशः प्रत्ययावयवश्च यः सकारः स प्रत्ययस्य अवयवः सकारः तस्य षत्वं भवति यः पिपठिष सः षत्व वै आदेश प्रत्यययोः. सो वाट यू हैव टू नोट व्हेन यू हैव पिपठिष अयं धातुः सनाद्यन्ता धातवः इत्यनेन धातुत्वं भवति. तस्मात् धातोः क्विप् प्रत्ययः पठितुम् इच्छति इति विग्रहे कर्तृत्वे क्विप् प्रत्ययः भवति. पिपठिष इत्यस्मात् क्विप् क्विप्रत्यये कृते अतो लोपः इत्यनेन अकारस्य लोपे पिपठिष्य व् इत्यस्ति. वेरप्रत्यस्य इति वलोपे पिपठिष् इति शकारान्तं कृतद्धितसमासाश्च इत्यनेन कृतं तत्त्वात् प्रातिपदिकत्वं भवति. सो यु हाव् अ प्रातिपदिका इति षकारान्तम् ऋत्वं प्रति शब्दस्य असिद्धत्वात् ससशिशोरुः इति ऋत्वम् इति उच्यते. विपठिष इत्यस्मात् सुप्रत्यये कृते सुप्रत्ययस्य हल्याभ्यो दीर्घात् सुतिस्य प्रक्तं हल् इत्यनेन लोपः. सः विपठिषु नौ दुःषत्व विच् इस् देर् विच् इस् डन् बै आदेशप्रत्यययोः इस् असिद्धा टु ऋत्व ससजुषोरुः इति सूत्रं प्रति षत्वम् असिद्धम्. ससजुषोरुः इति अष्टमाध्यायस्य द्वितीयपादे अस्ति. आदेशप्रत्यययोः इति अष्टमाध्यायस्य तृतीयपादे अस्ति. सो ऋत्वं प्रति षत्वस्य असिद्धत्वात् ऋत्वस्य दृष्ट्या अत्र सकारः अस्ति. इनिशियल् सकार आफ् सन् ऋत्वा दिस् सूत्र ससजुषोरुः सीस् द सन् विच् वास् ओरिजिनली देर् सीस् अ सकार. पदान्ते सकारः अस्ति इति मत्वा ससजुषोरुः पदान्तस्य सस्य ऋत्वं भवति इत्यनेन ऋत्वम् विपठि ऋ. जस्त्वापवादः ससजुषोरुः इस् एन् अपवाद टु जस्त्वा. सो ओवर्रूलिङ्ग् जस्त्वा यु हाव् रेफ कमिङ्ग् इन् वै ससजुषोरुः विपठिर् इति भवति. इदानीं सूत्रमस्ति रवोरुपधाया दीर्घैकः. चत्वारि पदानि सन्ति. रवोः उपधायाः दीर्घः इकः. उपधायाः इकः दीर्घः भवति. रवोः रेफवकारयोः पदस्य इत्यधिकारः अन्ते पदान्ते इदं कार्यं. सिविधातोरुर्वा इत्यनेन धातोः इति अनुवर्तते. सूत्रार्थः भवति रेफवान्तस्य धातोः उपधायाः दीर्घः स्यात् पदान्ते. देर् इस् अ धातु विच् एण्ड्स् इन् रेफ आर् वकार. तस्य पदान्ते तस्य उपधायां यः इक् वर्णः इकारः उकारः ऋकारः लकारो इ ऊरुल् तेषां दीर्घः भवति इत्यर्थः. पिपठिर् इत्यस्ति. अयं धातुः सनाद्यन्ता धातवः इत्यनेन सन्नन्तस्य धातुसंज्ञा अस्ति. धातोः रेफान्तः धातुः तस्य उपधायाम् इकारः श्रूयते. तस्य पदान्ते दीर्घे कृते पिपठीर् इति भवति. खलसानयो विसर्जनीयः इत्यनेन विसर्गे कृते पिपठीः इति प्रथमाविभक्तौ एकवचने रूपम्. प्रातिपदिका एस् पिपठिष प्रथमैकवचने पिपठीः इति रूपम्. पिपठीः पिपठिषौ पिपठिषः अजादिषु प्रत्ययेषु विशिष्टं कार्यं किमपि नास्ति. पिपठीर्भ्यां पुनः हलादिषु पिपठिषा पिपठीर्भ्यां पिपठीर्भिः. यत्र यत्र हलादिः प्रत्ययः तत्र ससजुषोरुः इत्यनेन ऋत्वं ऋत्वे कृते उपधादीर्घः. सो पिपठीर्भ्यां पिपठीर्भिः पिपठिषे पिपठीर्भ्यां पिपठीर्भ्यः इत्यादीनि रूपाणि. सुप्रत्यये किं भवति इति पश्यामश्चेत् पिपठिष सु इत्यस्ति. ससजुषोरुः इत्यनेन ऋत्वे पिपठिर् सु. रवोरुपधाया दीर्घैकः इत्यनेन दीर्घः पिपठीर् सु इत्यस्ति. इदानीं खरवसानयोर्विसर्जनीयः इति विसर्गं बाधित्वा वा शरी शरीपरे विसर्गस्य विसर्ग एव भवति विकल्पेन. सो फालोड् बै शर् विसर्ग सोरि फस्ट् डु खरवसानयोर्विसर्जनीयः. विसर्गे कृते वा शरी इत्यनेन विसर्गस्य स्थाने विसर्ग एव भवति इति उच्यते. So once you do visarga, visarga will remain as visarga. So you will have pipatihi su iti ekam rupam. Visargasya abhave, when this does not apply, when vashari does not apply, visarjaniyasya saha. Haripare visarjaniyasya sattvam bhavati ityanena sattve pipatihi su iti bhavati. So you have one form with pipatihi su and another with pipatihi su. In both these cases, there is one more sutra which will apply. Num visarjaniye shavyavayeti. It is a sutra. Padadvayam asti. Num visarjaniye shavyavaye api. Something like atkopvangum yavayeti, which we see in Ratva. This applies for shatva. Apadantasya muddhanyaha ityadhikaraha. Sahe sadasaha ityataha saha iti anuvartate. Inkohu ityapi anuvartate. Etaihi pratyekam vyavadhane api. Vyavayena means vyavadhane. When separated by any of these, either nu or visarjaniya or shar, inkubhyam parasya sasya mudhanyadeshasyat. Inak parasya kavargat parasya sakarasya mudhanyadeshasya bhavati. This precedes adeshapatyayoho. Adeshapatyayoho says inkavargabhyam parasya. So this shatva applies even when there is separation between the in or kavarga and sakara is separated by any of these. For example, when you had this visarga, vashari kanena visarga sisthane visarge krute, vipathihi su, e karaha invarnaha, tasmat visargaha asti, visargena vyavayeti, sakarasya mudhanyadeshaha, visarjaniya vyavaye shattvam bhavati, pipathishu iti rupam. In the other case, when you had sakara, visarjaniyasya saha ityanena sakare krate, shara vyavayaha, num visarjaniya shar vyavaye iti uchyate, shar vyavaye iti inahparasya sasya shattvam bhavati, ityanena shatve, pipathishu iti bhavati, shutvena purvasya shattvam. The previous sakara, stoshtunashtuhu ityanena, tasya shakaradeshe krate pipathishu iti rupam. So in both cases there is shatva. One because of visarjaniya vyavaya and the other because of sharvyavaya. Pratyekam iti vyakhyanat aneka vyavadhane shatvam na. There is one major difference between atkupangnum vyavayeti and num visarjaniya sharvyavayeti. Tatra etaihi vyastaihi athasambhavam militaihi iti uchyate. So when any number of those are there, at, kup, angnum, if all of them are present or if any number in any order, you get natva. Atra tu tatha nasti pratyekam vyavadhane, when separated by one of these, any one, if the separation is by num or by visarga or by shar, you can have shatva. Pratyekam vyavadhane eva shatvam bhavati. Natu aneka vyavadhane. If there is one or more than one of these present, shatvam na bhavati. Nimsva iti uchyate. Nisidhatuhu. Nisidhatuhu. Numadame krute. You have nims. Okay. So you have num. The anuswara here is that of num. Converted from num. So you have num and there is a shar here, which is sakara. And then you have the sakara of the pratyaya. Sva iti. Okay. So now this, the second sakara will not get shatva because it is separated by two. It is separated by an anuswara and it is separated by a sakara. So there is two of them. Shar. Numa vyavadhanamasti, shara api vyavadhanamasti. Ataha aneka vyavadhane shatvam na bhavati. Iti uktatva atra na bhavati. Evam nimse. Se iti pratyaha sakarasya numa sharaja vyavayaha asti ataha atrapi shatvam na bhavati. Num grahanam num sthanika anuswara upalakshanartham vyakhyanat. Num, which is told in the sutra, numagama num sthanika anuswara upalakshanartham. It points to an anuswara which has replaced num. So I get numagama. Numagame krute tasya anuswane krute yaha shruyate tasya iva ग्रहणं भवति अस्मिन् सूत्रे नुम् ग्रहणेन व्याख्यान भाष्यकारस्य दट् नुम् स्थानिक अनुस्वारस्य एव ग्रहणम् एन् अनुस्वार विच् इस् रिप्लेस्ड् नुम् शुड् बि टेकन् सो बिकास् आफ् दिस् तेन इह न सुहिंसु इत्यस्ति हिसि धातुः तस्य नुमागमे कृते यु हाव् हिन् सु नौ देर् इस् नुम् दिस् इस् डैरेक्ट्लि हर्ड् एस् नुम् देर् इस् नो अनुस्वार हियर् अनुस्वारः यदि नास्ति साक्षात् नुम् अस्ति तर्हि षत्वं न भवति नुमः नकारेण व्यवधाने षत्वं न नुम् स्थानिक अनुस्वारः यदि अस्ति सो वेन् सेपरेटेड् बै एन् अनुस्वार इट्स् इस् रिप्लेस्ड् नुम् तदैव षत्वं भवति साक्षात् नुम् यदि श्रूयते इट्स् डिरेक्ट्लि यु हियर् द नुम् द नकार आफ् नुमागम इन् द रूप देन् देर् इस् नो षत्व दिस् इस् व्याख्यानात् कथं ज्ञायते इति चेत् व्याख्यानादेव ज्ञातव्यम् Pumsu. And also if it is a simple anuswara, an anuswara which is not derived from num, tadapi shattvam na bhavati. Kevalena anuswarena vyavadhane shattvam naasti, pumsu ityatra na bhavati. Pumsu ityatra sakshat anuswara haasti. Natu numaha numsthanikaha anuswara ha. So tatraapi na bhavati. Atayeva na shar grahanena gatathata. Because of this, that is, just anuswara will not do. It has to be an anuswara which is replaced num. Otherwise, instead of saying num visarjaniya shar, Panini could have just said shar, sharvyavayati. Because ayogavahana atsu sharshuta pathaha paninina sikrataha. For ayogavaha, that is both anuswara and visarga, Maheshwara sutreshu pathaha angi kriyate. You consider that they are included in the Maheshwara Sutra. Ati, akarasya upari. Ai unnityatra, akarat param, visargasya, anuswarasya, sabathaha asti, sharshu. And in sharshasar also, we include anuswara and visarga. So, if Panini had wanted to include any anuswara, that is not just numsthanika anuswara, but any anuswara, so he could have directly just said shar. Shar includes sharshasar, num and visarga, not num, anuswara and visarga. So, shargrahanena katathata asyat. He could have reduced his sutra to just sharvyavayeti. But that is not what he wants. Kevalena anuswarena vyavadhane shattvam na bhavati. Num sthanika anuswarena vyavadhane eva shattvam bhavati. That is why he takes it particularly as num and also visarga. Since shar now does not want anuswara and visarga to be included in shar, he takes them separately and says, num visarjaniya sharvyavayati. So why this point is here? Because again, this is not the way we interpret atkuppam num vyavayati. Tatra kimuchyate num grahanam anuswaropalakshanartham. In atkuppam num vyavayati, we take num as just anuswara. Anywhere there is anuswara, we do not thought. Which is not the case here. Atratu num sthanika anuswaraha eva bhavet natu यः कोऽपि अनुस्वारः सो दट् इस् द एण्ड् आफ् शकारान्ताः पुल्लिङ्गाः समाप्ताः अन्ते सकारान्ताः पुल्लिङ्गाः शिष्यन्ते सो वि लेफ्ट् विथ् सकारान्त पुल्लिङ्गास् विच् विल् सी इन् द नेक्स्ट् क्लास् एनी क्वश्चन्स् नो ऐ थिङ्क् देयर् आर् फ्यू मोर् शकारान्तास् आर् नाट् कम्प्लीट् There is Chakirshi. There are a few more Sakarantas and then येनाक्षरतमां नायम् अधिगम्यमहेश्वरात् कृष्णम्याकरणं प्रोक्तं तस्मै पाणिनिये नमः हास्यकारं वररुचिं भाष्यकारं च कन्दलिं पाणिनिं सुप्तकारं च पादोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य तदुक्ति परिभाति च अन्याकरणसिद्धान्तकौमुदीयं विरक्षते